सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः, पश्चात् अस्माकं पाठं प्रति सरेम। भगिनी एकवारं स्मारयतु।
विद्या नाम नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनम्। विद्या भोगकरी यशस्सुखकरी, विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने, विद्या परा देवता। विद्या राजसु पूज्यते न तु धनम्, विद्या विहीनः पशुः। ॐ ॐ हरि ॐ श्री गुरुभ्यो नमः। नमः सर्वेभ्यः।
धन्यवादाः भगिनी।
धन्यवादः।
प्रवर्तमानः विषयः यबन्तानां चिन्तनम्, अष्टात्रिंशत्यधिक एकशतं पृष्ठं पश्यन्तु। तस्मिन् पुटे पञ्चमः अभ्यासः वर्तते, अष्टात्रिंशत्यधिक एकशतं 138 पेज् मध्ये स्मः वयं। पञ्चमः अभ्यासः वर्तते, तत्र कानिचन वाक्यानि दत्तानि, तेषाम् अवलोकनं कृत्वा अग्रे सर्तुं शक्नुमः। भगिनी भवती एव सूचनां पठित्वा वदतु, तत्र किं किं लिखितमस्ति।
आम् आं भगिनि, तत् तत्तत् सङ्ख्याकं गीतासोपान भगिनी कुचिव ध्वनि अस्ति गर्भे, केन् ऐ रीड् इट् लेटर्?
अस्तु, चिन्तमास्तु, चिन्ता मास्तु। अत्र सूरीकुमारी भगिनी भवती वदतु, अत्र सूचनां पठित्वा भवती किम् अवगतवती वदतु।
तत् सङ्ख्याकां गीतश्लोकम् उच्चैः पठित्वा एतासु पङ्क्तिषु त्वान्तं लवन्तं वा जानीत। वाक्यानि पठित्वा लवन्तं त्वान्तं वा जानीत।
गीताश्लोकः, गीताश्लोकः इति लिखितमस्ति, पुंलिङ्गपदमस्ति। तत्तत् सङ्ख्याकं गीताश्लोकं, द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति। श्लोकः इति पुंलिङ्गपदमेव, उच्चैः इति अव्ययपदमस्ति। पठित्वा वदतु।
पठित्वा त्वान्तरूपम् एतासु एतासु सप्तमी बहुवचनं, पङ्क्तिषु विशेषणविशेषभावः, एतासु पङ्क्तिषु सप्तमी।
अत्र पदस्य लिङ्गं किं, प्रथमान्तं किम्?
पङ्क्तिः
स्त्रीलिङ्गपदं खलु?
आं भगिनि।
अतः एव एतासु इति लिखितं खलु?
आं भगिनि।
उत्तमं। क्त्वान्तं ल्यबन्तम् इति लिखितमस्ति, ल्यबन्तं कदा आयाति?
लेप् योगः अन्तः, ल्यबन्तः द्वितीयविभक्ति ल्यबन्तम्।
उत्तमम्। अत्र क्त्वान्तं ल्यबन्तम् इति अनयोः द्वितीया विभक्तिः अस्ति, ल्यप् योगः अन्तं ल्यबन्तं, तत्र सन्धिकार्यम् अस्ति। अपि च यदा उपसर्गः अस्ति तदा ल्यप्रत्ययः विहितः भवति खलु?
भगिनि,
वा इत्युक्ते उत्तमं, विकल्पः।
ओके,
विकल्पः अस्ति अत्र केषुचित् वाक्येषु,
यत्र विकल्पः अर्थः नास्ति खलु भगिनि?
अत्र विकल्प वा इत्युक्ते विकल्पः इति अर्थः अपि अस्ति, किन्तु अत्र केषुचित् वाक्येषु क्त्वान्तरूपमस्ति, अन्येषु वाक्येषु ल्यबन्तमस्ति। जानीत इति प्रसङ्गे भवती यद् जानाति तद्वदतु।
ज्ञादातुतः लोट्लकारस्य मध्यमपुरुष बहुवचनं
अत्र धातुः ज्ञा अस्ति कथं जानीत भवति
ज्ञाजनोर्ज इति सूत्रे लट्लक लस् स्थितिपरे जा भवति
जा भवति ज्ञाजनोर्जा सूत्रेण ज्ञास्थाने जा आदेशः भवति किन्तु अत्र लटीरूपं किमस्ति प्रथमपुरुष एकवचन लटीरूपं किमस्ति
जानीते
अत्र धातुः उभयपदी अस्ति चेत्
जानाति
जानाति जानाति जानाति इत्यत्र श्नाविकरणप्रत्ययः अस्ति क्रियादिगणे अस्ति इति कारणतः जानाति इति तु साधु किन्तु जानीतः अत्र जानीत इत्यादीनि रूपाणि सिद्ध्यन्ति खलु अत्र क्रियादिगणे अस्ति इति कारणतः श्नाविकरणप्रत्ययः आयाति श्ना इत्यस्मात् न आयाति किन्तु अत्र जानाति जानीतः जानीत जानीः जानीताम् इत्यादिषु तत्र ईकारः श्रूयते खलु तदर्थमपि सूत्रमस्ति ईहल्यघोः इति सूत्रेण तत्र ईकारादेशः भवति तत्र न केवलं
पुनः वदतु भगिनि
ईहल्यघोः
ईहल्यघोः
इति सूत्रेण तत्र ईकारादेशः भवति तत्र न केवलं ज्ञाजनोर्जा इति सूत्रम् ईहल्यघोः सूत्रेण ईकारः दृश्यते जानाति अस्ति तत्र केवलं ज्ञाजनोर्जा जानीत द्विवचनरूपमस्ति तत्र ईहल्यघोः कार्यमस्ति एवमेव जानीत इत्यत्र जानीतः भिन्नं जानीत भिन्नं जानीतः इति लट्लकाररूपम् अत्र अस्मिन् वाक्ये जानीत इति लिखितमस्ति विसर्गः नास्ति तत्र लोट्लकार मध्यमपुरुष बहुवचनरूपमस्ति यथा भवत्या उक्तमेव अत्र प्रथमं वाक्यं करोतु
दृष्ट्वा तु पाण्डवानेकं दृष्ट्वा दृष्टात् धातुतः त्वान्तरूपं सन्धिकार्यमस्ति
हल्सन्धिकार्याणि खलु
आम् आं भगिनि
उत्तमम् अत्र हल्सन्धिकार्याणि इति कथनेन दृश् तालवीयशकारान्तधातुः अतः षत्वं भवति भ्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः सूत्रेण तालव्यशकारस्य मूर्धन्यशकारादेशः भवति षत्वम् इति कार्यं भवति पश्चात् तत्र शकारः अस्ति मूर्धन्यशकारः मूर्धन्यशकारस्य प्रभावेण वदतु
चुनाष्टुः सूत्रेण स्थाने का भवति
दन्त्ये तकारस्य स्थाने मूर्धन्यटकारः आगतः ष्टुत्वम् इति वदामः अनन्तरं वर्णमेलनेन दृष्ट्वा इति रूपं भवति दृश्धातुः इरित् धातुः अतः इरः इत् संज्ञा वाच्या इत्यनेन इर् इत्यस्य इत् संज्ञा भवति पाण्डवानीकम् इति समस्तपदं जानाति चेत् समासं वदतु
पाण्डवानाम् अनेकम् षष्ठी तत्पुरुष
उत्तमम् अत्र अनेकः अनेकम् इति लिङ्गद्वये अपि अस्ति इति मम अवगमनमस्ति पुंसि नपुंसि अपि इदं पदमस्ति इति अहं चिन्तयामि अपि च पाण्डवानेकम् इत्यत्र पदं पश्यन्तु अन्ते मकारः अस्ति मकारः लिख्यते एवमेव यदा वयं लिखामः एवमेव लेखनीयम् इत्युक्ते लेखनशैली तादृशी भवेत् अन्ते अनुस्वारः न कदापि लेखनीयं खलु
भगिनि पदान्तस्य वाक्यान्ते अस्ति
वाक्यस्य अन्ते अस्ति इति कारणतः तत्र न कदापि सन्धिकार्यं न भवति तत्र मकारः एव लेखनीयं पदान्ते न कदापि अनुस्वारस्य प्रयोगः भवति न कदापि भवति इति विषयः. पाण्डवानीकम् इति लिखितम् अस्ति, अत्र वक्तुं शक्यते वा विभक्तिः का इति, पदस्य विभक्तिः का इति? अत्र पूर्णतया वाक्यं न दत्तमस्ति, किन्तु किञ्चिदेव दत्तमस्ति. एतद् दृष्ट्वा वक्तुं शक्यते वा?
द्वितीय एकवचनम्
उत्तमं. पाण्डवानीकं दृष्ट्वा इति एव श्लोके लिखितमस्ति. अत्र अहं पूर्णतया श्लोकं दृष्टवती, अतः वदन्ती अस्मि, पाण्डवानीकं दृष्ट्वा दुर्योधनः अब्रवीत् इति वाक्यम्. पाण्डवानां सैन्यम् अनीकम् इत्युक्ते सैन्यं, पाण्डवानीकं दृष्ट्वा दुर्योधनः अब्रवीत् इति वार्ता. अग्रे वदतु.
धनुः उद्यम्य पाण्डवः, उत् उपसर्ग अस्ति चेत् लवन्तम् अस्ति उद्यम्य. उत् योगः दम्
उद्योगः यम्
ओ यम् उद्यम् ओके यम् योगः लेप् तदेव भगिनि
उत्तम. उद्यम्य इति भवति. अत्र धनुः इति लिखितमस्ति, विभक्तिः का, लिङ्गं किम्?
धनुः धनुस्
धनुष् षकारान्तप्रातिपदिकं
धनुष् धनुः ये धनुः नपुंसकलिङ्गमस्ति भगिनि.
उत्तमं, रूपाणि वदतु.
धनुः धनु धन् धन्वः न क्षम्यतां धनुः धनुस्
अत्र वर्षा भगिनी एकवारं स्मारयतु.
धनांसि धनांसि
धनुः धनुषि धनुंषि धनुः धनुषि धनुंषि धनुषा धनुभ्यां धनुभिः एतादृशं धनुषे धनुभ्यां धनुभ्यः धनुषः धनुर्भ्यां धनुर्भ्यः धनुषः धनुषोः धनुषां धनू न भवति धनुषां धनुषि धनुषोः धनुषु.
उत्तमं, धनुष्यु इति रूपं भवति. तत्र षकारान्तप्रातिपदिकमस्ति इति कृत्वा धनुः धनुषि धनुंषि धनुः धनुषि धनुंषि एकवचनरूपम् एवं भवति, धनुषा धनुषे धनुषः धनुषः धनुषि, एवम् एकवचनरूपाणि भवन्ति. नपुंसलिङ्ग नपुंसकलिङ्गपदमस्ति, अत्र कर्मपदमस्ति धनुः इति कर्मपदं, द्वितीयविभक्ति एकवचनरूपं दत्तमस्ति. उद्यम्य इति ल्यबन्तम् अव्ययम्, पाण्डवः इति तद्धितान्तपदमस्ति. उद्यम्य इत्युक्ते अत्र वाक्यं दृष्ट्वा धनुः उद्यम्य पाण्डवः इति लिखितमस्ति, अत्र उद्यम्य इत्युक्ते किम्?
पूर्वकार्यम्.
शब्दस्य अर्थः कः इत्युक्ते अत्र भवती पदं कथं निष्पादितम् इति भवती उक्तवती, किन्तु उद्यम्य धनुः उद्यम्य पाण्डवः इति लघुवाक्यं लिखितम् अस्ति. अत्र पाण्डवः धनुः उद्यम्य इति अत्र अन्वयः. इतोपि किञ्चित् अस्ति श्लोकस्य भागः. अत्र उद्यम्य इत्युक्ते उद्धृत्य इति वक्तुं शक्यते, धृत्वा उद्धृत्य, हेविङ्ग् लिफ्टेड् अप्, हेविङ्ग् टेकन् अप् धनुः इति अर्थः. हेविङ्ग् लिफ्टेड् अप् धनुः, पाण्डवः किं कृतवान् इत्युक्ते पाण्डवः धनुः उद्यम्य हृषीकेशम् आह इति श्लोके लिखितमस्ति. पाण्डवः इत्युक्ते अत्र अर्जुनः. अर्जुनः धार्तराष्ट्रान् दृष्ट्वा धनुः उद्यम्य हृषीकेशम् आह, आह इत्युक्ते अवदत् इति अर्थः अस्ति. having lifted up dhanuhu. Udhrutya. Udhyamya iti uktavati. Udhrutya iti atra kim asti?
Udhrutya? Dharanam.
Dharanam. Dharana poshana yoho. Iti. Dhru dhatuhu.
Udhyamya sthane vattaya api samyak bhagini.
Samyak eva. Utthaya. Utthaya nasti utthapya vaktavyam. Swayam na bhavati khalu. Nijanta rupam vaktavyam khalu. Tatra.
Utthapi. Oh, okay. Utthapi.
Atra udhrutya iti rupam sadhu bhavati. Udhrutya iti atra uttu upasarga purvaka dhru dhatu taha lyaprateha asti. Tatra tuk agamaha bhavati. Udhrutya. Uttu dhru dhatuhu. ल्यप्रत्ययः अस्ति किन्तु तत्र तुक् आगमः भवति इति विषयः किन्तु अत्र उद्यम्य इति पदं लिखितमस्ति ल्यबन्तपदम् अत्र रूपसाधनवेलायां किं भवति भवती वक्तुमिच्छति वा
बुद्धियोगः यं धातु अस्ति ल्यप् बुद्ध प्रथमं बुद्धियोगः यम् उद् भवति जस्वसन्धि उद्यम् योगः ल्यप् यकार एव अवशिष्यते उद्यम्य
अत्र मकारलोपः भवति खलु अनुनासिकलोपः भवति खलु
वा ल्यप् सूत्रेण उद्य
अत्र रमेशमहोदय भवान् वदतु अत्र यम् धातुः मकारान्तधातुः अस्ति वाल्यपि सूत्रेण अनुनासिकलोपः विकल्पेन भवति वा
न भवति इति चिन्तयामि परन्तु किमर्थं न भवति इति न जानामि
अत्र अनुनासिकलोपः प्रयत्य प्रयम्य इति रूपं रूपद्वयमपि अस्ति इति मम अवगमनमस्ति एवमेव अत्रापि वाल्यपि सूत्रेण अनुनासिकलोपः विकल्पेन भवति वा चिन्तनीयं भवति इति चिन्तयामि आगत्य आगम्य एवमेव अत्रापि भवति वा मकारान्तधातुः यम् धातुः अस्तु
उपदेशे अवस्थायाम् अनुदात्त उपदेशे तदेव सूत्रमस्ति खलु वनति तनोति
अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलि क्निति इति सूत्रेण अनुनासिकलोपः भवति किन्तु अनुनासिकलोपः मकारान्तधातूनां प्रसङ्गे विकल्पेन भवति वाल्यपि सूत्रेण अतः रूपद्वयं सिध्यति इति आगम्य आगत्य इत्यत्र वयं पठितवन्तः किन्तु तादृशं चिन्तनमेव अत्रापि भवति वा
भवति चेत् रूपम् उद्यया भवति भगिनि
उद्यत्या भवति खलु
उद्यन्त्य
किन्तु अत्र उद्यम्य इति लिखितमस्ति अस्तु अग्रे सरेम साधु भगिनी चिन्ता मास्तु भूमा भगिनी अग्रे किं लिखितं वदतु
स्वजनं हि कथं हत्वा सुखिनः स्याम स्वजनं सम् नाइस् इस् कमिङ्ग् भगिनी
अस्तु इदानीम् अत्र वर्षा भगिनी भवती वदतु वदतु तृतीयं वाक्यं वदतु
हा भवती पूर्वं तत् यत्य इति रूपम् अस्ति महोदय अत्र अष्टाध्यायी मध्ये प्रायत्य इति रूपं कृदन्तकोष्टके दत्तमस्ति
रूपद्वयमपि अस्ति
रूपद्वयमपि अस्ति यम् उपरमे इति धातु द्वादिगणे
अस्तु
प्रयत्य इति अपि रूपमस्ति
धन्यवादः भगिनी
धन्यवादाः. भवती पठतु अग्रे किं लिखितम्.
स्वजनं हि कथं हत्वा सुखिनः स्याम. अत्र स्वजनं अत्र स्वजनं द्वितीयविभक्त्याम् अस्ति. स्वस्य जनम् इति स्वस्य जनाः स्वजनाः स्वस्य जनः भवति तस्य द्वितीया विभक्ति स्वजनम् इति भवति. हि इति अव्ययपदं कथम् इति अपि अव्ययपदं हत्वा इति त्वान्तपदं हन्दातु नकारस्य लोपः भवति तदनन्तरं अस्य त्वान्तयोजने त्वा योजनेन हत्वा इति रूपं भवति. तदनन्तरं सुखिनः अपि द्वितीया सुखिनः इति सुखी सुखिनौ सुखिनः प्रथमा विभक्ति बहुवचनं सुखिन् शब्दः सुखिनः इति भवति तस्य रूपः. तदनन्तरं तस्य रूपः तदनन्तरं श्याम इति
रूपं
रूपं रूपं श्याम इति क्रियापदं अत्र अस्ति अस्धातोः उत्तमपुरुष बहुवचनरूपं श्याम इति भवति. श्याम इति विधिलिङ्गि अस्ति श्याम श्याम इति रूपम् तदेव अस्ति.
उत्तमं बहु सम्यक् भगिनी तदेव अस्ति. स्वजनः इति पुंलिङ्गशब्दः अत्र द्वितीयाविभक्ति एकवचनरूपं दत्तमस्ति. स्वजनं हत्वा निजजनम् आत्मबन्धून् हत्वा इति अत्र अर्थः अस्ति. हि इति अव्ययपदमस्ति. कथम् इति अपि अव्ययपदमस्ति. किम् इति शब्दात् निर्मितं पदं कथं तद्धितान्त अव्ययपदमस्ति. कथम् इत्यनेन केन प्रकारेण इति अर्थः. केन प्रकारेण कथं तत्र प्रकारार्थे किमश्च इति सूत्रेण थमु इति प्रत्ययः आदेशः भवति. किं सर्वनामशब्दात् प्रकारार्थे थमु इति प्रत्ययः अस्ति. थमु इत्यत्र उकारः उच्चारणार्थः थम् इति एव अवशिष्यते. तत्र इतोपि अन्यत् सूत्रम् आयाति किमः कः इति सूत्रेण किं स्थाने का आदेशः भवति. का युगः का योगः थं कथम् इति भवति. अपि च इदं पदम् अव्ययपदं भवति. तद्धितश्च सर्वविभक्तिः तद्धितश्च सर्वविभक्तिः इति विशिष्टसूत्रेण इदं तद्धितान्तपदम् अव्ययपदं भवति. तत्र सुप्रत्ययः विहितः भवति आदौ पश्चात् अव्ययात् आप्सुपः तस्य अव्ययसंज्ञा अस्ति इति कृत्वा अव्ययात् आप्सुपः इति सूत्रेण अन्ते स्थितस्य सुप्रत्ययस्य लुक् भवति. अतः इदम् अव्ययं भवति. अतः तस्य रूपं सर्वासु विभक्तिषु सर्वेषु लिङ्गेषु समानं भवति. तस्य रूपं न भिद्यते इति वार्ता. हत्वा इत्यत्र अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक् निति सूत्रेण नकारलोपः भवति. हन् इति धातुः क्त्वा प्रत्ययस्य योजनेन तत्र नकारलोपः भूत्वा हत्वा इति रूपं भवति. मन् अस्ति चेत् मत्वा इति भवति. सुखिन् इति नकारान्तप्रातिपदिकम्. इदानीं सूर्यकुमारी भगिनी भवती वदतु सुखिन् शब्दस्य रूपाणि द्वितीयापर्यन्तं वदतु. भगिनी वक्तुमिच्छति वा?
क्षम्यतां भगिनि. सुखिन् नकारान्त पुल्लिङ्गपदं भगिनि.
अत्र प्रातिपदिकमस्ति सुखिन् इति प्रातिपदिकं नकारान्तप्रातिपदिकम् अस्ति. तत्र पुंलिङ्गरूपं वदतु किमर्थं चेत् तत्र सुखिन् इति प्रातिपदिकम् अस्ति. प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि साधयितुं शक्नुमः. किमर्थं चेत् गुणिन् शब्दवत् सुखिन् इति पदमस्ति. गुणिन् इति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि साधयितुं शक्नुमः. गुणिन् इत्यत्र गुणी इति पुंलिङ्गे, स्त्रीलिङ्गे गुणिनी, नपुंसकलिङ्गे गुणिनी, ह्रस्वैकारः गुणि गुणिनी गुणीनि एवं रूपाणि भवन्ति. अत्र सुखिन् प्रातिपदिकं स्वीकृत्य पुंलिङ्गे वदतु, किमर्थं चेत् अस्मिन् वाक्ये पुंलिङ्गे दत्तमस्ति.
सुखी सुखिनौ सुखिनः, सुखिनं सुखिनौ सुखिन, सुखी
सुखिनः,
ओ द्वितीय अपि सुखिनः.
तत्र गुणी गुणिनौ गुणिनः, गुणिनं गुणिनौ गुणिनः. अत्र गुणिनः अथवा सुखिनः इति पदं बहुत्र आयाति. प्रथम बहुवचनं, द्वितीय बहुवचनं, पञ्चमी एकवचनं, षष्टि एकवचनं, एतेषु स्थलेषु समानं रूपं दृश्यते. अत्र सुखिन् इति नकारान्तप्रातिपदिकमस्ति, किन्तु तत्र इतोपि चिन्तनमस्ति. रमेश महोदय वदतु, सुखिन् इत्यत्र चिन्तनं किम् अस्ति?
इनि प्रत्ययः अस्ति, सः सुखी अस्ति इति सुखिनः इति भवति वा?
सुखं सुखम् एषाम् एषु वा अस्ति इति सुखिनः, सुखं सुखम् एषाम् अथवा एषु वा अस्ति, अथवा गुणिन् इति वदामश्चेत् तत्र गुणाः अस्य अस्मिन् वा सन्ति इति अर्थः खलु. वदतु,
गुणाः अस्मिन् अस्ति इति गुणिन् भवति, योगः अस्मिन् इति योगिन् इति शब्दः भवति, प्राणम् अस्मिन् अस्ति इति प्राणी भवति, प्राणिन् इति प्रातिपदिकं भवति.
उत्तमम्. अत्र प्राणी इति पुंलिङ्गे भवति, प्राणिनी स्त्रीलिङ्गे भवति. इत्युक्ते इनि प्रत्ययान्तपदानि त्रिषु लिङ्गेषु भवन्ति. इत्युक्ते मधुवर्धकप्रत्ययः अयं प्रत्ययः, इनि इति प्रत्ययः अस्ति तत्र, किन्तु इन् एव प्रत्ययस्य अवशिष्टभागः अस्ति, किन्तु अदन्तप्रातिपदिकेभ्यः एव अयं प्रत्ययः विहितः भवति. अत्र प्रातिपदिकमस्ति सुख, सुख इति प्रातिपदिकं स्वीकृत्य इनि इति तद्धितप्रत्ययस्य योजनेन सुखिन् इति नूतनप्रातिपदिकं तद्धितान्तप्रातिपदिकं सिद्ध्यति. सुख इति अकारान्तप्रातिपदिकं, तत्र अत इनिठनौ इति विशिष्टसूत्रेण इनि प्रत्ययस्य विधानं भवति. विधायकसूत्रं तत् सुख इति अदन्तप्रातिपदिकम्. इनि प्रत्ययस्य प्रसङ्गे तत्र इनि इति कथनेन दन्त्यनकारोत्तरवर्ति इकारः अस्ति खलु, दन्त्यनकारोत्तरवर्ति इकारः प्रक्रियायां लुप्यते, अन्ततो गत्वा तत्र इन् एव अवशिष्यते. सुखायोगः इन् इति रूपम् अस्ति. अपि च तत्र सुख इत्यत्र खकारोत्तरवर्ति अकारस्य लोपः अपि भवति, अन्ततो गत्वा रूपं सुखिन् गुणीशब्दवत्. अत्र पुंलिङ्गे गुणीशब्दवत् रूपाणि भवन्ति, स्त्रीलिङ्गे नदीशब्दवत् रूपाणि भवन्ति, नपुंसकलिङ्गे सुखी सुखिनी सुखीनि एवं नपुंसकलिङ्गे रूपाणि भवन्ति इति विषयः. श्याम इति रूपमस्ति, भगिन्या उक्तं विधिलिङ्गलकाररूपमस्ति. स्यात् स्यातां स्युः, तत्र स्याः स्यातं स्यात, स्यां स्याव स्याम एवं रूपाणि भवन्ति. वयं स्याम, वयं कथं सुखिनः स्याम इति वदति अर्जुनः. अत्र वाक्यं स्वजनं हत्वा कथं सुखिनः स्याम वयम्, यद्यपि तत्र वयम् इति पदं न दत्तमस्ति, तथापि वयम् अवगन्तुं शक्नुमः खलु, स्वजनं हत्वा सुखिनः कथं स्याम इति अत्र वार्ता. अग्रिमं वाक्यं भवती पठतु, वर्षा भगिनी.
तत्रैकाग्रं मनः कृत्वा, तत् अत्र
प्रथमं तत्र एक तत्र एकाग्रं सन्धिकार्यम् अस्ति अत्र तत्र योगः एकाग्रं विधि वृद्धिसन्धि तत्रैकाग्रम् इति द्वितीयविभक्त्याम् अस्ति वाक्ये मनः
किमर्थम् अत्र द्वितीयाविभक्तिः इति उक्तवती इतोपि वदतु
श्लोके
मनः कृत्वा इति लिखितं खलु एकाग्रं मनः खलु द्वयोर्मध्ये सम्बन्धः अस्ति खलु अत्र
विशेषभावः अस्ति अत्र मनः इति विशेष्यम् अपि च तत्र एकाग्रं मनः
नपुंसकलिङ्गपदं
करोति हा इति कृत्वा
अत्र तत्र योगः एकाग्रं द्वयोर्मध्ये सन्धिकार्यं वदतु
हा वृद्धिसन्धि अस्ति अत्र महोदय अत्र तत् वाक्ये तत्रैकाग्रं मनः कृत्वा यतच्चित्तेन्द्रियक्रियः इति पदमस्ति तदेव कर्तृपदं भवति इति कृत्वा मनः इति द्वितीयाविभक्त्यामेव भवेत् कर्मपदं भवति तस्य विशेषणमस्ति तत्रैकाग्रं तदपि द्वितीया मनः
वदतु वदतु
मनः अपि द्वितीयाविभक्त्यामेव अस्ति किल मनः मनसि मनांसि मनः मनसि मनांसि इति अतः तत्रैकाग्रम् अपि द्वितीयाम् अस्ति
उत्तमं साधु मनः इति नपुंसकलिङ्गपदमस्ति मनः कृत्वा इति अस्मिन् वाक्ये दत्तमस्ति क्रूधातुः सकर्मकधातुः अतः मनः कृत्वा द्वयोर्मध्ये अन्वयः अस्ति मनः कीदृशः एकाग्रं मनः तत्र मनः इति नपुंसकलिङ्गपदमस्ति अतः एकाग्रं मनः इति भवति तत्र एकाग्र इति प्रातिपदिकस्य रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति इत्युक्ते विशेषणमस्ति इत्यतः त्रिषु लिङ्गेषु तस्य रूपाणि सन्ति मनः इत्यस्य विशेषणमस्ति इत्यतः अत्र एकाग्रं मनः इति लिखितमस्ति एकाग्रं मनः इति इत्यत्र एकाग्रम् इति समस्तपदं भगिनी वदतु तत्र विग्रहवाक्यं कथं वदामः
एकाग्रस्य वा
एकाग्रम् एकाग्रम्
अग्रम् एकः एव अग्रः यस्य सः इति बहुव्रीहि
नपुंसकलिङ्गे वदामः वदतु परिवर्त्य वदतु किञ्चित्
एकम् एव अग्रम् अग्रः एकम् एव अग्रः न सम्यक् एकः एव अग्रः यत् यस्य तत्
उत्तमम् एकम् अग्रं यस्य तत् इति वक्तव्यम् एकम् अग्रं यस्य तत् यस्य एकम् अग्रम् अस्ति तत् एकम् अग्रं यस्य तत् एवं विग्रहवाक्यं वदामश्चेत् बहुव्रीहिसमासः अस्ति बहुव्रीहिसमासयुक्तानि पदानि अन्यपदस्य विशेषणानि भवन्ति अत्र एकाग्रम् इति मनः इति शब्दस्य विशेषणं भवति एकाग्रम् इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति बहुव्रीहिसमासयुक्तानि पदानि त्रिषु लिङ्गेषु सम्भवन्ति एकम् अग्रं यस्य तत् एकाग्रम् इति भवति मनः इत्यस्य विशेषणमस्ति क्रूधातुः सकारान्तधातुः अतः क्षम्यतां क्रूधातुः सकर्मकधातुः क्रूधातुः सकर्मकधातुः अतः मनः इत्यस्य द्वितीयाविभक्तिः भवति मनस् इति सकारान्तप्रातिपदिकमस्ति अत्र कृत्वा इत्यत्र इडागमः नास्ति यद्यपि त्वाप्रत्ययः सेट् प्रत्ययः कृ इति धातुः अनिट् धातुः इति कृत्वा इत्युक्ते धातुप्रत्ययोः मध्ये इडनुकूलता वर्तते चेदेव इडागमः भवति इति पठितं खलु किन्तु अत्र क्रूधातुः अनिट् धातुः सामान्यतया अजन्तधातवः अनिटः भवन्ति सामान्यतया हलन्तधातवः स्थेटः भवन्ति इति परिशीलनमस्ति कुत्रचित् अपवादाः सन्ति, किन्तु सामान्यतया अजन्तधातवः सेट् अनिटः भवन्ति, अजन्तधातवः अनिटः भवन्ति इति विषयः. अत्र क्रूधातुः अनिट् धातुः, किन्तु तत्र अपवादः कः इत्युक्ते करिष्यति इत्यत्र इडागमः दृश्यते, तत्र विशिष्टसूत्रेण रुद्धनोः स्ये इति विशिष्टसूत्रेण करिष्यति इत्यस्मिन् पदे इडागमः दृश्यते, किन्तु क्रूधातुः तु अनिटेव. अतः एव कृत्वा, कृतः, कृतवान्, कृतिः इत्यादिषु इडागमः न दृश्यते. ते सर्वे प्रत्ययाः तकारादिप्रत्ययाः, तकारः वलादिः, वशादिः नास्ति, अतः इडागमः तस्मिन् प्रत्यये भवितुं शक्नोति, किन्तु धातुः अनिट् अस्ति, सा एव समस्या तत्र. अत्र मनः इत्युक्ते चित्तम्, एकाग्रम् इत्युक्ते संलग्नं कृत्वा, लग्नं कृत्वा इति अर्थः अस्ति. एकाग्रं मनः कृत्वा इत्यनेन अत्र अर्थः कः, सावधानं मनः, अवधानेन सहितं, चित्तशुद्धये सावधानम्. अत्र किं लिखितं, वर्षा भगिनी भवती एव वदतु, अस्मिन् श्लोके किमुक्तमस्ति तत्रैकाग्रं मनः कृत्वा इत्यत्र?
एकाग्रं मनः कृत्वा एतत् चित्तेन्द्रियक्रियः उपविश्यासने युज्य योगमात्मविशुद्धिः इति दत्तमस्ति. अत्र एकाग्रं मनं करणीयं, मन एकाग्रं करणीयम्. अत्र इन्द्रियाः, इन्द्रियाणि अपि संयम्य अत्र आसने स्थित्वा योगी योगं करणीयं, किमर्थं चेत् आत्मविशुद्धये योगं करणीयम् इति दत्तमस्ति.
उत्तमम्, धन्यवादः भगिनी. चित्तशुद्धये एकाग्रं मनः कृत्वा इत्येव अस्ति. तत्र इति पदमस्ति खलु, तत्र इति अपि तद्धितान्तपदमेव. तत्र अत्र, तत्र, कुत्र, अन्यत्र, सर्वत्र इत्यादिषु त्रल् इति प्रत्ययः अस्ति. सप्तम्यर्धे त्रल् इति प्रत्ययः अस्ति, सप्तम्यास्त्रल् इति सूत्रेण सर्वाधिगणीयशब्देषु एतत् कार्यं भवति. सर्वाधिगणीयशब्देभ्यः, सर्वेभ्यः शब्देभ्यः सर्वाधिगणः नाम्ना सर्वादीनां सर्वनामानि इति सूत्रमस्ति. सर्वाधिगणः नाम्ना एकः गणः अस्ति, तस्मिन् गणे ये ये सदस्याः सन्ति तेभ्यः परं त्रल् इति प्रत्ययः अस्ति. तत्र त्रल् इति कथनेन लकारः इति संज्ञकः, त्र एव अवशिष्यते. किं शब्दात्? कुत्र. तद् शब्दात् तत्र. अन्यप्रातिपदिकात् त्रल् योजनेन अन्यत्र. सर्वप्रातिपदिकात् त्रल् योजनेन सर्वत्र इत्यादीनि रूपाणि भवन्ति. सप्तम्यर्धे त्रल् विहितः भवति, सप्तम्यास्त्रल् इति सूत्रेण इति विषयः. अग्रे सरेम. इदानीं भूमा भगिनी भवती पठतु अग्रिमं वाक्यं. किं
सर्वद्वाराणि संयम्य मनो हृदि निरुद्ध्य च. सर्वद्वाराणि
समस्तपदम्,
समस्तपदं सर्वद्वाराणि.
अत्र भवती यज्जानति तद्वदतु, अग्रे वयं वदामः.
सर्वद्वाराणि संयम्य लेबन्तपदं, सम् उपसर्ग यम् धातुः,
यम् धातुः
पूर्वमेव
द्वारं, द्वारम् इति नपुंसकलिङ्गपदं, द्वारं शब्दस्य रूपाणि वदतु.
द्वारं, द्वारे, द्वाराणि.
द्वाराणि इत्यत्र णत्वं किमर्थमस्ति?
रेफ, रेफ अस्ति,
निमित्तम् अस्ति,
निमित्तं रेफनिमित्तम् अस्ति. सूत्राणाम् अहं न स्मरामि.
उत्तमम्. अत्र रेफात् परं रेफोत्तरवर्ति आकारः अस्ति, इत्युक्ते आकारः अट् प्रत्याहारस्थवर्णः अस्ति. रेफस्य अनन्तरम् इत्युक्ते रेफदन्त्यनकारयोः मध्ये आकारः अस्ति, आकारः बाधकवर्णः नास्ति, आकारः अट् प्रत्याहारस्थवर्णः, सः वर्णः अस्ति चेदपि तत्र बाधा नास्ति, अतः णत्वं भवति. अट् कुप्वाङ्गनं व्यवायेऽपि इति सूत्रेण णत्वं भवति. अत्र निमित्तं तु रेफः. सर्वद्वाराणि इति समस्तपदमस्ति. सर्वाणि च, तानि द्वाराणि च, सर्वाणि द्वाराणि इति विग्रहवाक्यं वक्तव्यं भवति. विशेषणपूर्वपदकर्मधारे समासः अस्ति. सर्वाणि द्वाराणि, तत्र विशेषणमस्ति सर्वाणि, तत्र सामानाधिकरण्यमस्ति. कर्मधारे समासप्रसङ्गे सामानाधिकरण्यम् इति वदामः. अधिकरणं समानमस्ति इति वक्तव्यमस्ति. अत्र सर्वद्वाराणि इति कथनेन श्लोके कः अर्थः इति प्रश्ने सति सर्वाणि इन्द्रियाणि इति अर्थः. भवती वदतु.
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च मूर्ध्य मूर्च्यव मूर्ध्यादायात्मनः प्राणमार्थितो योगधारणम्.
ओ धन्यवादाः, उत्तमम्. अत्र सर्वद्वाराणि इत्युक्ते इन्द्रियाणि, सर्वाणि इन्द्रियाणि इति अर्थः. संयम्य इत्युक्ते
कण्ट्रोलिङ्ग्
निगृह्य. तत्र वर्षा भगिनी भवती वदतु. निगृह्य सङ्गृह्य इति पदयोः प्रसङ्गे भवती किञ्चित् वदतु. निगृह्य इति वदामि चेत् संयम्य इत्यस्य अर्थः निगृह्य, ग्रहधातोः रूपमेव ल्यबन्तरूपं. निगृह्य, प्रगृह्य, सङ्गृह्य, इमानि पदानि ग्रहधातुतः निर्मितानि ल्यबन्तानि सन्ति. भवती वदतु.
भेदः वा महोदय?
भेदः कः? निगृह्य, सङ्गृह्य.
सङ्गृह्य इत्युक्ते सम्यक्तया गृह्य इति, परन्तु अत्र निगृह्य इत्युक्ते इन्वर्ड् पुल्लिङ्ग् इन्वर्ड्. सङ्गृह्य मीन्स् वेल् कण्ट्रोल्ड्, प्रगृह्य मीन्स् प्रकर्षेण गृह्य. दट् इस् आल्सो द सेन्स् आफ् उत्तम गुड् कण्ट्रोल्.
अत्र नियम्य, नियम्य इत्युक्ते संयम्य अथवा नियम्य, निगृह्य इत्यपि वक्तुं शक्यते. साधु, तदेव. मनः हृदि निरुध्य च इति लिखितमस्ति. मनः, भूमा भगिनी वदतु.
मनः प्रातिपदिकं, मनः शब्दः, मनः मनसि मनांसि नपुंसकलिङ्गमस्ति. हृदि, हृदि हृदये,
हृदये, उत्तमं. समानार्थकं पदमस्ति हृदि. तत्र हृत् इति हलन्तशब्दः, हृद् हृदौ हृदः एवं रूपाणि भवन्ति. हलन्तशब्दः हृत् इति. किन्तु हृदयम् इति अजन्तशब्दः, इत्युक्ते हृदय इति प्रातिपदिकमस्ति, अकारान्तप्रातिपदिकमस्ति. हृदयम् इत्यत्र हृदय इति प्रातिपदिकम्, अकारान्तप्रातिपदिकं. किन्तु हृद् इत्यत्र दकारान्तप्रातिपदिकं, हलन्तशब्दः. हृदि इति सप्तमीविभक्तिरूपं, तस्य समानार्थकं पदं हृदये इति भवति. वदतु.
निरुध्य रुद्धुधातु नि उपसर्ग ल्यबन्तपदम्,
ल्यबन्तपदम्.
निरुध्याने स्थापय वा स्थापित्वा?
निरुध्य इत्युक्ते संस्थाप्य इति वक्तुं शक्यते.
हृदये स्थापयित्वा च, च अव्ययपदानि,
अव्ययपदम्. उत्तमम्. अत्र सर्वद्वाराणि इति कथनेन इन्द्रियाणि इति उक्तं खलु, नवद्वाराणि अथवा सकलप्रवेशद्वाराणि इति लिखितं. नवद्वाराणि, सकलप्रवेशद्वाराणि. संयम्य मनः हृदि निरुध्य च, मनः हृदये संस्थाप्य योगं करोतु, योगः आचरणीयः. अत्र रुद्धधातोः रूपमेव निरुध्य, अत्र रुद्धधातुः रुधादिगणीयप्रथमसदस्यः रुधिर् इति धातोः रूपम् इरित् धातुः अत्र तत्रापि यरः इत्संज्ञावाच्यावार्तिकेन इत्संज्ञा भवति तत्र रुद्ध लौकिकधातुः लटीरूपं रुणद्धि रुणद्धि रुन्धः रुन्धन्ति एवं रूपाणि भवन्ति इति विषयः अग्रे पठतु
ज्ञात्वा भूतानि अव्ययम् ज्ञात्वा ज्ञातु त्वान्त प्रत्ययं
त्वान्तरूपम् अत्र सुजाता भगिनी भवती वदतु ज्ञात्वा इत्यत्र कार्यं किम् अस्ति
ज्ञा धातु अस्ति त्वान्तरूपम् अस्ति ज्ञायोगः त्वा ककारस्य इत्संज्ञा भवति लशक्वतते ज्ञात्वा भवति
अनुबन्धलोपे सति तत्र किमपि कार्यं नास्ति खलु ज्ञायोगः त्वा ज्ञात्वा इति रूपं भवति किन्तु तत्र ज्ञाजनोर्जा इति कार्यं सार्वधातुकप्रक्रियायां भवति आर्धधातुकप्रक्रियायां ज्ञाजनोर्जा कार्यं नास्ति इत्युक्ते आम् क्षितिपरे एव कार्यं भवति ज्ञाधातुः क्रियादिगणे अस्ति क्रियादिगणे क्रियादिभ्यः श्ना इति सूत्रेण श्नाविकरणप्रत्ययः आयाति श्नाविकरणप्रत्ययः षित् प्रत्ययः किन्तु अपित् प्रत्ययः इति विषयः किन्तु ज्ञात्वा इति रूपसिद्धिः आर्धधातुकप्रक्रिया तत्र ज्ञाजनोर्जा कार्यं नास्ति खलु
आं भगिनि
उत्तमं भूतादिम् अव्ययम् इति लिखितम् अस्ति भूतादिं प्रसङ्गे भवती वदतु अत्र विभक्तिः का
भूत भूत आदिम् अव्ययम् भूतादिं प्राणी
अत्र विभक्तिः विभक्तिः का
भूतादिं द्वितीया विभक्ति
उत्तमं द्वितीया विभक्तिः इत्युक्ते भूत् प्रथमाविभक्तिरूपम् अस्ति भूतादिः अत्र भूतादिः अव्ययः इति अनयोर्मध्ये विशेषणविशेष्यभावः अस्ति अव्ययः इत्युक्ते परमात्मा अव्यय भूतादिः अव्ययः इति अस्ति किन्तु अनयोर्मध्ये विशेषणविशेष्यभावः अस्ति इति कारणतः भूतादिम् अव्ययं ज्ञात्वा परमात्मा कीदृशः भूता अव्ययः भूतादिः इति ज्ञात्वा इति अत्र लिखितमस्ति भूतादिः इति प्रथमाविभक्तिरूपम् अस्ति भूतादिः इति समस्तपदम् अस्ति वर्षा भगिनी वदतु अत्र कः समासः वदतु
भूतानाम् आदिः भूतादिः तं भूतादिम् इति द्वितीयम् अस्ति
भूतानाम् आदिः इति विग्रहवाक्यं षष्टितत्पुरुषसमासः अस्ति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण तत्पुरुषसमासस्य प्रसङ्गे परशब्दस्य लिङ्गमेव समस्तपदस्य लिङ्गं भवति अत्र आदिः इति पुंलिङ्गपदमस्ति अतः भूतादिः इति पदमपि पुंलिङ्गपदमेव भूतादिः अव्ययः अव्ययः इत्युक्ते परमात्मा अविनाशी इति अपि वक्तुं शक्यते अविनाशिनं परमात्मानम् अव्ययं भूतादिं ज्ञात्वा इति तत्र वक्तव्यमस्ति भूतादिम् अव्ययम् अनयोर्मध्ये सन्धिकार्यम् अस्ति वा वर्षा भगिनी वदतु अत्र वाक्यं दृष्ट्वा वदतु भूतादिम् अव्ययम्
नास्ति इति मया चिन्तितं किमर्थं चेत् भूतादिम् अव्ययम् इति पदमेलनमेव अपि च अत्र वाक्यमस्ति भजन्त्यरण्यमनसो ज्ञात्वा भूतादिम् अव्ययम् इति माम् अव्ययम् इति भूतादिम् अव्ययम् इति ज्ञात्वा अनन्यमनसो मां भजति इति अत्र अर्थः लभते पदमेलनमेव अस्ति
उत्तमम् किमर्थं तत्र सन्धिकार्यं नास्ति इत्युक्ते भूतादिम् अव्ययम् इत्यत्र अकारः अव्ययम् इत्यत्र आदिमवर्णः अकारः अस्ति, अकारः अस्ति इति कारणतः अचुवर्णः हल् वर्णः नास्ति, हल् वर्णः अस्ति चेदेव मोनुस्वारः सूत्रेण अनुस्वारादेशः भवति, मकारोत्तरवर्ति अत्र अकारः अस्ति, अतः केवलं वर्णमेलनमेव कर्तुं शक्नुमः, भूतादिमव्ययम् इति वक्तुं शक्यते, किन्तु अत्र अनुस्वारः न सम्भवति, किमर्थं चेत् अकारः हल् वर्णः नास्ति, मोनुस्वारः सन्धिसूत्रेण अनुस्वारसन्धिः अत्र न भवति, सन्धिकार्यं नास्ति, केवलं वर्णमेलनं, ज्ञात्वा इत्यस्य स्थाने विदित्वा इति अपि वक्तुं शक्यते, विदित्वा इति विद् धातोः रूपम् अस्ति, विद् धातुः सेट् अस्ति, इति कृत्वा विद्योगः क्त्वा विद् धातोः रूपमेव वेत्ति, वेत्ति इति रूपम् अस्ति, आदादिगणीयविद् धातुः ज्ञाने इत्यस्मिन् अर्थे अस्ति विद् धातुः, विद् ज्ञाने, विद् धातुः बहुषु गणेषु अस्ति किन्तु अदादिगणीयविद् धातोः प्रसङ्गे एव वदन्ती अस्मि, अदादिगणीयविद् धातुः एव ज्ञाने इत्यस्मिन् अर्थे अस्ति, तस्य लटीरूपं वेत्ति, अत्र ज्ञात्वा इत्यस्मिन् स्थाने विदित्वा इत्यपि लेखितुं शक्यते, मां भूतादिम् अव्ययं ज्ञात्वा महात्मानः भजन्ति, अत्र अव्ययः इत्युक्ते नास्ति व्ययः यस्य सः इति वक्तुं शक्यते विग्रहवाक्यं, महात्मानः भजन्ति सत्त्वगुणप्रधानाः एवं भजन्ति, एवं मां भजन्ति सत्त्वगुणप्रधानाः एव महात्मानः, भगिनी महात्मानः इति पदं कीदृशं, वर्षा भगिनी
समस्तपदं
वदतु,
महान् आत्मा न महत् आत्मा वा, महान् आत्मा, महान् आत्मा यस्य सः, तदा आवश्यकं महान् आत्मा एव पूर्वविशेषणपूर्वपदकर्मधारे समासः, परन्तु आत्मानः अस्ति महात्मानः इति अस्ति, अतः अत्र प्रत्ययः अपि अस्ति, तदनन्तरं तद्धितान्त
रमेश महोदय, अत्र महात्मानः एकवचनरूपमस्ति, महात्मा महात्मा महात्मानौ महात्मानः महात्मानं महात्मानौ महात्मनः एवं रूपाणि भवन्ति खलु, वदतु
किं वक्तव्यं महोदय,
महात्मानः महात्मानः पुरुषाः अथवा सत्त्वगुणप्रधानाः महात्मानः माम् इत्युक्ते परमात्मानम् एवं भजन्ति इति तत्र अर्थः अस्ति, महात्मानः प्रसङ्गे वदतु,
महात्मानः इति प्रथमाविभक्ति बहुवचनमस्ति, महान् यथा वर्षया महा आत्मनः महत् महान् आत्मा महात्मा एव भवति ते इति महात्मनः इति रूपं सूचयति,
उत्तमम्, अत्र आत्मन् आत्मन् इति नकारान्तप्रातिपदिकमस्ति, आत्मन् इति नकारान्तप्रातिपदिकमस्ति इति कारणतः अपि च आत्मन् इति प्रातिपदिकं स्वीकृत्य आत्मा इति पुंलिङ्गपदं साधयामः, तत्र महान् आत्मा इति कथनेन वदतु,
तत्र महत् इति एव प्रातिपदिकम् अस्ति, तत्र तकारस्य लोपः भवति अपि च दीर्घः अपि भवति, महस् शान्तं
आन्महतः समानाधिकरणजातीययोः, आन्महतः आन्महतः समानाधिकरणजातीययोः इति सूत्रेण आत् आत् महतः समानाधिकरणजातीययोः आत् इति कथनेन आकारादेशः भवति, कदा महतः इति शब्दस्य प्रसङ्गे, कदा समानाधिकरणं यत्र अस्ति अत्र समानाधिकरणमस्ति कर्मधारे समासः अस्ति कर्मधारे समासे समानाधिकरण्यम् अस्ति समानाधिकरण्यं वर्तते इति वदामः कर्मधारे समासस्य प्रसङ्गे समानाधिकरण्यं वर्तते तस्यां दशायां तत्र महत् इति प्रातिपदिकं स्वीकृत्य महत् इत्यस्य स्थाने महा इति रूपं सिद्ध्यति महाभारतं महादेवः महाबलः इत्यादिषु पदेषु कर्मधारे समासः अस्ति विशेषणपूर्वपदे कर्मधारे समासः अस्ति इति कृत्वा महाबलः तत्र प्रातिपदिकमस्ति पूर्वपदस्य प्रातिपदिकं महत् अस्ति किन्तु आन्महतः समानाधिकरणजातीययोः सूत्रेण महत् इत्यस्य रूपं महा भवति तत्र आकारादेशः भवति इति वार्ता महान् आत्मा यस्य सः इति भवति वा अत्र केवलं कर्मधारे समासः अस्ति वा नो चेत् अत्र बहुव्रीहिसमासः अपि अस्ति वा महात्मा इत्यत्र वर्षा भगिनि
अत्र अन्यपदनिर्देशनं नाभवितुम् अर्हति किल महोदय किमर्थं चेत् आत्मा अन्यत् आत्मनः अन्यत् किम् इति कृत्वा अत्र किमपि नास्ति इति कृत्वा पूर्वधारे विशेषपूर्वपदपदधारे समासे एव भवेत् इति चिन्तयामि
महात्मानः पुरुषाः इति वक्तुं शक्यते योगिनः महात्मानः इति वक्तुं शक्यते खलु इदं पदम् अन्यपदस्य विशेषणं भवितुम् अर्हति अस्तु इति विषयः अग्रे सरेम सप्तमं वाक्यमस्ति भवती एव पठतु अग्रिमं वाक्यम्
धृत्यात्मानं नियम्य च अत्र धृत्यात्मानं नियम्य च इति पदस्य धृत्यात्मानम्
अत्र अत्र पदविच्छेदं करोतु आदौ
समस्तपदम्
अत्र समस्तपदमस्ति चेत् सन्धिकार्यं नित्यम् अस्ति सन्धिः नित्यः समस्तपदेषु सन्धिः नित्यः सन्धिकार्यम् अवश्यं करणीयं धृत्यात्मानम् इत्यत्र समस्तपदमस्ति वा इति अन्या वार्ता किन्तु समस्तपदानां प्रसङ्गे सन्धिकार्यं तु करणीयमेव अत्र तु केवलं पदविच्छेदं धृत्यात्मानं पदविच्छेदं करोतु
धृत्या आत्मानम् इति अस्ति अत्र सवर्णदीर्घसन्धि भूत्वा धृत्यात्मानम् इति लभ्यते
धृत्या इति धृत्या इति पदं कीदृशं पदं
तृतीया विभक्त्याम् अस्ति धृति इति धृतिः इति प्रातिपदिकं
तद्रूपं साधयतु धृतिः साधयतु
मतिवत् धृतयः धृतिं धृति धृतिः धृत्या धृतिभ्यां धृतिभिः धृत्यै धृतिभ्यां धृत्यै धृतिये धृतिभ्यां धृतिभ्यः धृत्याः धृतये धृतेः धृतिभ्यां धृतिभ्यः
उत्तमम् अत्र धृतिः इति पदमस्ति धृतिः इति पदस्य तृतीयविभक्ति एकवचनरूपमस्ति धृतिः इति क्तिन् प्रत्यान्तपदमस्ति अतः स्त्रियां क्तिन् इति सूत्रेण धृतिः इति पदं स्त्रीलिङ्गपदमस्ति ध्रु इति धातुः अस्ति ध्रुधातुतः क्तिन् प्रत्ययस्य योजनेन धृतिः इति पदं सिद्ध्यति अत्र तृतीयविभक्तिरूपं धृत्या धृत्या योगः आत्मानं धृत्यात्मानम् सवर्णदीर्घसन्धिः अस्ति धृत्या इति तृतीयविभक्तिरूपमस्ति अत्र धृत्या इति तृतीयरूपं समस्तपदं नास्ति धृत्या आत्मानं अत्र पदविच्छेदमेव करणीयं धृतिः इति प्रथमाविभक्ति एकवचनरूपं धृत्या इति तृतीयविभक्ति एकवचनरूपमस्ति किन्तु अत्र धृत्वा इति वदामि चेत् भेदः कः पुनः वदामि धृत्या धृत्वा वर्षा भगिनी वदतु धृत्वा धृत्या
स्वाप्रत्ययस्य योजनेन धृत्वा इति लभते तदपि साधु एव
उत्तमम्. अत्र भेदः अस्ति, भेदः अस्ति खलु, तदेव वक्तुमिच्छामि.
कृदन्तपदमस्ति धृत्या इति सुबन्तस्य तृतीयाविभक्तिरूपं धृत्या इति.
बहु सम्यक्. तत्र भेदः अस्ति धृत्वा इति कथनेन क्त्वान्तरूपं, धृत्या इति कथनेन धृतिः इति शब्दस्य तृतीयाविभक्तिरूपम् अस्ति. एवमेव दृष्टिः दृष्ट्या तृतीयाविभक्तिरूपं, दृष्ट्वा इति कथनेन क्त्वान्तरूपं, तत्र भेदः अस्ति इति विषयः. पुनः धृतिः इति शब्दं स्वीकृत्य धृतिः अस्य अस्मिन् वा अस्ति, मतुप् प्रत्ययस्य योजनेन धृतिः इति प्रातिपदिकं स्वीकृत्य मतुप् इति प्रत्ययस्य योजनेन किं रूपं सिद्ध्यति?
धृतिमान्.
उत्तमं. धैर्य इति प्रातिपदिकं स्वीकृत्य मतुप् योजनेन किं रूपं सिद्ध्यति?
धैर्यवान्.
किमर्थं भेदः?
अकारान्तपदमस्ति चेत् आने
सूत्रम्. बहु सम्यक्. इत्युक्ते प्रत्ययः मतु प्रत्ययः एव, किन्तु धैर्य इति प्रातिपदिकम् अकारान्तप्रातिपदिकम्, अतः मतुप् इत्यस्य तत्र वा आदेशः भवति, धैर्यवान् इति रूपं भवति. किन्तु धृतिमान् इति भवति, धृतिमान् मतिमान्, किन्तु धैर्यवान् गुणवान्, एवं मतु प्रत्ययान्तरूपाणि साधयितुं शक्नुमः. अत्र धृत्या इत्युक्ते धैर्येण इति अर्थः अस्ति. धृत्या स्थाने धृतिमान् भव इति वक्तुं शक्यते, अथवा धैर्यवान् भव इति वक्तुं शक्यते. धृतिमान् धैर्यवान् इमानि पदानि मतु प्रत्ययान्तपदानि. धृत्या आत्मानं नियम्य च इति लिखितमस्ति. आत्मानं, वर्षा भगिनी भवती वदतु द्वितीयापर्यन्तं रूपाणि. उत्तमम्. अपि च अत्र च इति अव्ययपदमस्ति. साधु भगिनी धन्यवादाः. अग्रिमं वाक्यं सुजात भगिनी भवती करोतु.
आं भगिनि. अथ व्यवस्थितान् दृष्ट्वा, दृष्ट्वा क्वान्तपदमस्ति, अव्ययमस्ति. अथ अथ अपि
अव्ययमेव
भगिनि. व्यवस्थितान् वि उपसर्ग अस्ति, अवस्थितान् सम्यक् एव भगिनि.
उत्तमं. वि उपसर्गपूर्वक, अव उपसर्गपूर्वक, कथाप्रत्ययः खलु. वियोगः अव इत्यत्र सन्धिकार्यमस्ति.
किम् गुणसन्धि भवति,
यण् सन्धि,
यण् सन्धि भवति. क्षम्यतां भगिनि, यकारः आयाति, यण् सन्धि भवति.
इकारस्य स्थाने यकारः आयाति,
यकारः आयाति.
द्वयोः स्थाने नास्ति, इकारस्य स्थाने यकारः आयाति. वियोगः अव इत्यत्र इकारस्य स्थाने यकारः आयाति. व्यव इति अस्ति, स्था इति धातुः अस्ति. स्था इति धातुः दीर्घ आकारान्तधातुः. स्था इत्यस्य रूपं किमर्थं तत्र ईकारः आयाति इति प्रश्ने सति एकं विशिष्टं सूत्रमस्ति तत्र. द्यति स्यति मास्थाम् इति किति स्थां सूत्रे द्यति स्यति मास्थाम् इति लिखितमस्ति. इत्युक्ते द्यति स्यति मास्थाम् इति षष्ठी बहुवचनरूपम् अस्ति. एतेषां प्रसङ्गे, एतेषां स्थाने षष्टिविभक्तिः सूत्रेषु अस्ति चेत् स्थाने उक्तमस्ति. तेषां स्थाने यित् इत् इति कथनेन इकारादेशः भवति. कदा? तकारादि कित् प्रत्यये परे. द्यति स्यति मास्थाम् इत्तिकिति, इत्तिकिति इति अर्थः अस्ति. इकारादेशः भवति कित् प्रत्यये परे. अत्र कित् प्रत्ययः कः?
स्थितान् भवति.
अहं किं पृष्टवती इत्युक्ते कित् प्रत्यये परे एव इकारादेशः भवति. अत्र कथाप्रत्ययः कित् प्रत्ययः
अस्ति. आं भगिनि.
उत्तमं. व्यवस्थित इति, व्यवस्थित इति प्रातिपदिकमस्ति, क्तान्तप्रातिपदिकं खलु.
आं भगिनि.
व्यवस्थितान् रूपं कस्मिन् लिङ्गे अस्ति?
व्यवस्थितान् द्वितीय व्यवस्थितान्
कस्मिन् लिङ्गे? कस्मिन् वदतु कस्मिन् लिङ्गे
व्यवस्थित नपुंसकलिङ्गे अस्ति भगिनि?
व्यवस्थितान् रामान्
रामान् द्वितीय बहुवचनं
इत्युक्ते पुंलिङ्गरूपमस्ति इत्युक्ते व्यवस्थित इति प्रातिपदिकमस्ति, व्यवस्थित इति कृदन्तप्रातिपदिकं क्तान्तप्रातिपदिकं कृदन्त क्तान्तप्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति, किन्तु अत्र पुंलिङ्गे लिखितमस्ति व्यवस्थितान् दृष्ट्वा इति लिखितमस्ति. दृश् धातुः सकर्मकः, अतः व्यवस्थितान् इति कर्मपदमस्ति, अतः द्वितीयाविभक्ति पुंलिङ्ग बहुवचनमस्ति. अध इत्युक्ते कुत्रचित् अध इति शब्दस्य आरम्भः इति अर्थः अस्ति, किन्तु अत्र सन्दर्भोचितः अर्थः अस्ति, तदनन्तरं ततः इति अर्थः अस्ति अत्र, किन्तु कुत्रचित् आरम्भः इति अर्थः अपि अस्ति अधशब्दस्य. किन्तु अस्मिन् श्लोके अध इति कथनेन ततः. वर्षभगिनी भवती वदतु, अधातो ब्रह्मजिज्ञासा, तत्र अधशब्दस्य कः अर्थः?
अथ इति द्वे ऐ थिङ्क् आक्चुली देर् इस् अ लाट् आफ़् डिस्कशन् अबौट् दिस् नो महोदय. इट् कुड् मीन् अट् द बिगिनिङ्ग् आर् इट् कुड् मीन् मङ्गलार्थे आर् इट् प्रथमतया तत् करणीयम् इति, प्रथमतया वयं ब्रह्मजिज्ञासा कुर्मः इति अर्थः.
अधातो ब्रह्मजिज्ञासा, तत्र अतः ब्रह्मजिज्ञासा इति कथनेन तदनन्तरम् इति अर्थः अस्ति तत्र. तदनन्तरम् इत्युक्ते तस्मात् पूर्वं किम् अस्ति इति सर्वैः ज्ञातव्यं खलु. अधातो ब्रह्मजिज्ञासा इति कथनेन तत्र अधः इति कथनेन तदनन्तरं ततः परम् इति अर्थः अस्ति, इत्युक्ते तस्मात् पूर्वं किञ्चिदस्ति तस्मिन् प्रसङ्गे अस्माभिः आदौ ज्ञातव्यं, तदनन्तरमेव ब्रह्मजिज्ञासां कर्तुम् अथवा ब्रह्मजिज्ञासुः भवितुम् अर्हतां प्राप्नुमः इति वक्तुं शक्यते तत्र. अस्तु, अध इति शब्दस्य बहवः अर्थाः सन्ति, अत्र तु अस्मिन् श्लोके तु तदनन्तरं ततः परम् इति अर्थः अस्ति. अग्रिमं वाक्यं सुजाता भगिनी भवती एव करोतु. भगिनी नो चेत् रमेश् महोदय भवान् करोतु नवमं वाक्यं.
क्षम्यतां भगिनि, म्यूट् मे अस्ति.
वदतु वदतु नवमं वाक्यं.
निहत्य धातराष्ट्रान् नः, नि उपसर्ग अस्ति, हन् धातुतः लबन्तमस्ति निहत्य.
उत्तमम्. अत्र हन् धातोः रूपमेव अत्र दत्तमस्ति, ल्यबन्तरूपमस्ति, क्त्वान्तमस्ति हत्वा इति रूपं भवति, क्त्वान्तरूपे अपि ल्यबन्तरूपे अपि नकारलोपः भवति, किन्तु निहत्य इत्यत्र तुक् आगमः अपि भवति निहत्य इत्यत्र. अपि च क्त्वान्तरूपाणि ल्यबन्तरूपाणि अव्ययपदानि भवन्ति. क्त्वान्तरूपं क्त्वा तोसुन् कसुनः सूत्रेण क्त्वान्तपदम् अव्ययं भवति, किन्तु क्त्वा प्रत्ययस्य स्थाने यदि तत्र उपसर्गः अस्ति चेत् क्त्वा प्रत्ययस्य स्थाने ल्यपायाति इति कृत्वा ल्यप्रत्ययुक्तानि पदानि अपि अव्ययानि भवन्ति इति वार्ता अस्ति. धार्तराष्ट्रान् वदतु.
धार्तराष्ट्रान् द्वितीय बहुवचनमस्ति.
लिङ्गम्
धार्तराष्ट्राः पुंलिङ्गमस्ति, पुंलिङ्गद्वितीया बहुवचनमस्ति.
उत्तमम्. अत्र वर्षा भगिनी भवती वदतु, धार्तराष्ट्राः कीदृशं पदं?
सर्जिदार्थ.
किञ्चित् वदतु.
धृतराष्ट्रस्य धृतराष्ट्रस्य अपत्यं पुमान् धृतराष्ट्रः तां ते इति धातराष्ट्राः भवति. तान् इति द्वितीयविभक्त्या.
उत्तमम्. अत्र धार्तराष्ट्रान् इति द्वितीयविभक्ति बहुवचनरूपमस्ति. रामान् इव रूपमस्ति. अत्र धृतराष्ट्र इति प्रातिपदिकं स्वीकृत्य अपत्यार्थे, अपत्यम् इत्युक्ते पुत्रः इति अर्थः अस्ति. अपत्यार्थे अण् इति प्रत्ययस्य योजनेन धृतराष्ट्र इति प्रातिपदिकात् अण् प्रत्ययस्य योजनेन धार्तराष्ट्र इति पदं प्रातिपदिकं तद्धितान्तप्रातिपदिकं सिद्ध्यति. धार्तराष्ट्राः इति बहुवचनरूपं वक्तुमिच्छामश्चेत् तत्र विग्रहवाक्यं किं भवति? धृतराष्ट्रस्य अपत्यानि पुमांसः इति भवति. किन्तु अत्र द्वितीय बहुवचनं वक्तव्यं खलु, अतः धृतराष्ट्रस्य अपत्यानि पुमांसः तान् इति वक्तव्यं भवति इति वार्ता. नः इति पदमस्ति. सुजाता भगिनी, नः इत्युक्ते?
नः इत्युक्ते दकारान्त अस्मत् शब्दस्य नः भवति भगिनि.
उत्तमम्.
अस्मान्नः.
अत्र अस्मान्नः अस्ति, अस्मभ्यं नः अस्ति, अस्माकं नः अस्ति खलु.
आं भगिनि.
त्रिषु स्थलेषु नः अस्ति. किन्तु अत्र कः अर्थः?
इत्युक्ते
नः इति पदं विकल्पेन त्रिषु स्थलेषु अस्मत् शब्दस्य
अस्मान् शब्दस्य अस्मान् भवति, विकल्पेन नः अपि भवितुमर्हति.
षष्टिरूपमपि भवितुमर्हति.
षष्टिरूपम्
अस्माकं नः.
अस्माकं नः
इति अपि
अस्मभ्यं नः भवति.
षष्टिरूपम् अस्माकं नः अपि भवितुमर्हति. अत्र श्लोकार्थं दृष्ट्वा अत्र तु षष्टिविभक्तिः अस्ति. धार्तराष्ट्रान् निहत्य नः का प्रीतिः इति वाक्यमस्ति. इत्युक्ते धार्तराष्ट्रान् निहत्य अस्माकं का प्रीतिः इति अर्थः अस्ति. नः इति अस्मत् शब्दस्य रूपम्. धार्तराष्ट्राः इति पदं धृतराष्ट्र इति प्रातिपदिकात् निर्मितं. किन्तु धृतराष्ट्रः इति पदं कथं साधितं? वर्षा भगिनी.
समस्तपदम् अस्ति. धृतराष्ट्रः इत्युक्ते
धृतं राष्ट्रं. धृतं राष्ट्रं येन सह इति विग्रहवाक्यं भवति. तत्र समासः कः? येन सह. येन सह, यस्मात् सह. इत्युक्ते तृतीयार्धबहुव्रीहिः इति वक्तुमिच्छति वा? उत्तमम्. धृतं राष्ट्रं येन सह इति विग्रहवाक्यं भवति. बहुव्रीहिसमासः अस्ति. इतोपि स्पष्टतया वक्तव्यं चेत् तृतीयार्धबहुव्रीहिः द्वितीयार्धबहुव्रीहिः, यं सः द्वितीयार्धबहुव्रीहिः, येन सह तृतीयार्धबहुव्रीहिः, यस्मै सह चतुर्थ्यर्धबहुव्रीहिः, यस्मात् सह, यस्य सह. यस्य सह इति साधारणतया वयं शृणुमः. पीतम् अम्बरं यस्य सह, पीताम्बरः. तत्र षष्ट्यर्थ बहुव्रीहिसमासः अस्ति. यस्मिन् सह इत्यपि भवितुं शक्नोति. षट्सु अर्धेषु तत्र षट्सु प्रकारेषु बहुव्रीहिसमासः वक्तुं शक्यते. अस्तु, धृतं राष्ट्रम् येन सह इति भाति. दशमं वाक्यम् अत्र रमेश महोदय भवान् पठतु.
एवं बुद्धेः परं बुद्ध्वा संस्तभ्य आत्मानम्. एवम् इति अव्ययपदमस्ति, बुद्धेः इति पञ्चमी विभक्त्यामस्ति बुद्धिशब्दस्य. परं
महोदय, महोदय अत्र किमर्थं पञ्चमी विभक्तिः इति उक्तवान्? षष्टिरूपमपि तदेव खलु.
बुद्धेः परम् इति उपपद परम् उपपदं दूरान्तिक.
वर्षा भगिनी वदतु.
तत् परम् इति उपपदम् अस्ति, अतः अत्र बुद्धेः पञ्चमी विधीयते. सूत्रं
चिन्ता मास्तु, तत्र परं परम् इति उपपदमस्ति इति कारणतः बुद्धेः उपपदपञ्चमी विभक्तिः अस्ति. बुद्धेः परम् इति लिखितमस्ति. साधारणतया अत्र परम् इति कथनेन कः अर्थः महोदय वदतु?
परम् इत्युक्ते पश्चात् अपि भवितुमर्हति, उत्तमम् अपि भवितुमर्हति.
अत्र अत्र तु उत्तमं खलु?
अत्र उत्तमम्,
उत्कृष्टम्, उत्तमम् इति अर्थः अस्ति. एवमेव पराशक्तिः इति कथनेन तत्र अर्थः कः? पराशक्तिः, परादेवता, पराविद्या.
पराविद्या इत्युक्ते उत्कृष्टः विद्या एव तत्र.
उत्तमम्, उत्कृष्टा विद्या कर्मधारे समासः अस्ति. परादेवता इत्यत्रापि परा च सा देवता च इति वक्तुं शक्यते. कर्मधारे समासः अस्ति, विशेषणपूर्वपदकर्मधारे समासः अस्ति, तत्र सामानाधिकरण्यं वर्तते. पराशक्तिः इति कथनेन तत्रापि समस्तपदमस्ति. परा इति विशेषणमस्ति, अपि च उत्तमम्, उत्कृष्टम् इति अर्थः अस्ति. बुद्धेः परं भवान् वदतु इदानीं.
बुद्धेः परं बुद्ध्वा इति त्वान्तपदमस्ति, संस्तभ्य इति ल्यबन्तपदमस्ति, आत्मानम् आत्मानम् इति द्वितीयाविभक्त्यामस्ति एकवचनरूपम्. एवं बुद्धेः परं बुद्ध्वा आत्मानं संस्तभ्य इति भवति. तत्र बुद्ध्वा इति बुद्ध धातोः बुद्ध धातोः तान्तपदं क्वान्तपदमस्ति. तत्र बुद्ध योगः त्वा हा तदेव जषस्ततोर्दोदः अपि च जलां झषि जलां झष् झषि
सूत्रद्वयेन सूत्रद्वयेन वदतु.
सूत्रद्वयेन प्रथमं जशोर्स् जषस्ततोर्दोदः इति सूत्रेण स्वान्तस्य तकारस्य धकारादेशः भवति. तत्पश्चात् जलां झष् झषि इति सूत्रेण जश्वर्णस्य जश् आदेशः भवति.
अल्पप्राणदकारः आगतः अत्र.
अल्पप्राणदकारः आगच्छति.
उत्तमं, धकारस्य स्थाने बुद्ध इत्यत्र धकारः अस्ति, धकारस्य स्थाने झलां झष् झषि इति सूत्रेण अल्पप्राणदकारः आगतः इति विषयः. बुद्ध्वा इति प्रसङ्गे किञ्चित् अहं पठितवती, तदर्थं वदन्ती अस्मि. बुद्धधातुः दिवादिगणे अस्ति. दिवादिगणीयबुद्धधातोः प्रसङ्गे एव बुद्ध्वा इति रूपं सिद्ध्यति. भुवादिगणीयबुद्धधातुः अपि अस्ति. दिवादिगणीयबुद्धधातोः प्रसङ्गे बुद्ध्वा इति रूपं, भुवादिगणे बुधित्वा बोधित्वा इति रूपं सिद्ध्यति. भुवादिगणे बुधित्वा इति एकं रूपं, बोधित्वा इति रूपमपि वयं शृणुमः. बुध्वा इदं रूपं दिवादिगणीय बुद्धिधातोः प्रसङ्गे, इत्युक्ते भुवादिगणीयबुद्धिधातोः प्रसङ्गे बोधित्वा रूपं किमर्थं सिद्ध्यति इति प्रश्नः उदेति. तत्र क्त्वाप्रत्ययः परः अस्ति, क्त्वाप्रत्यये परे कित्वात् गुणनिषेधः भवनीयम्. इत्युक्ते भुवादिगणीयबुद्धिधातोः प्रसङ्गे बोधित्वा इति रूपसिद्धौ तत्र चिन्तनं किमस्ति इत्युक्ते, तत्र कित्वं विकल्पेन भवति. एकस्मिन् पक्षे कित्वं भवति, अन्यस्मिन् पक्षे कित्वं न भवति. कित्वं भवति चेत् गुणनिषेधः, कित्वं नास्ति चेत् गुणकार्यं. तदर्थमेव बोधित्वा इति रूपमपि सिद्ध्यति. किन्तु दिवादिगणीयबुद्धिधातुः अनिट् धातुः, अतः अत्र बुध्वा इत्यत्र इडागमः नास्ति. किन्तु भुवादिगणीयबुद्धिधातोः प्रसङ्गे सेट् धातुः सेट् अस्ति, अतः बुधित्वा इति एकं रूपं, बोधित्वा इति अन्यद् रूपं सिद्ध्यति. तत्र इडागमसहितं रूपम् अस्ति, धातुः सेट् अस्ति इति कारणतः, अपि च बोधित्वा इत्यत्र गुणकार्यमपि भवति. किमर्थं चेत् कित्वं विकल्पेन भवति, अथवा कित्वं विकल्प्यते तत्र इति विषयः. अपि च बुद्धिः इति स्थाने धीः इति रूपमपि योजयितुं शक्नुमः. धीः, लक्ष्मीः, श्रीः इत्यादिषु विसर्गः अवश्यं लेखनीयः. तत्र विसर्गसहितं रूपमेव दृश्यते. धीः, लक्ष्मीः, श्रीः इत्यादिषु इति विषयः. अत्र वाक्यस्य अर्थः कः इत्युक्ते, एवं बुद्ध्वा परं एवं बुद्धेः परं बुद्ध्वा संस्तभ्य आत्मानम् इति लिखितं. वर्षा भगिनी भवती वदतु, भवती यद् जानाति तद् वदतु.
अत्र श्लोकस्य अर्थः
वदतु.
पूर्वं यदा इन्द्रियनिग्रहं करणीयं, तदनन्तरं मनः एव इन्द्रियाः परः, तद् तत्सर्वम् अत्र पूर्वं दत्तमस्ति. अत्र पूर्वम् अस्ति एतादृश इन्द्रियनिग्रहेण वयं किं करणीयं, बुद्धेः परं बुद्धेः परं आत्मः यत् अस्ति तत् किं करणीयं, श्रेष्ठेन इङ्ग्लिश्
वदतु.
I'll try. Okay. So first is to understand that what is greater than the intellect is the Atma, and then having controlled the Indriyas, then restraining oneself, which means by controlling the Indriyas, then by the self only the enemy has to be destroyed. So what is the enemy? Kama Rupaha. The Kama, which is the enemy, desire, which is the root of all problems, because that is explained in the second shloka very well, second chapter very well, on how Kama is the root of all problems. So that Kama Rupa Shatru has to be killed by restraining the self by the self. So that is the meaning of the shloka.
Bahut samyak. Dhanyavadah Bhagini. Uttama. Uttama. Atra. Evam ityukte. अनेन प्रकारेण इति अर्थः अस्ति. एवम् अनेन प्रकारेण बुद्धेः परं कः अस्ति, बुद्धेः परम् आत्मा अस्ति. बुद्धेः अपेक्षया आत्मा उत्कृष्टः. बुद्धिः इत्युक्ते इण्टलेक्ट्. बुद्धेः अपेक्षया आत्मा परः उत्कृष्टः इति अर्थः अस्ति. तृष्णारूपं दुर्जनं शत्रुं जहि, कामरूपं शत्रुं जहि इति लिखितं खलु, कामरूपं शत्रुं जहि. अस्तु, अग्रे सरेम. इदानीं अत्र भूमा भगिनी अग्रे वदतु, अग्रे पठित्वा वदतु.
उपविश्य आसने युज्यात्, उपविश्य
युञ्ज्यात् खलु,
एवं बुद्धेः. नेक्स्ट् वन् इस् उपविज्य,
उपविश्य
आसने युञ्ज्यात् ओहो युञ्ज्यात् न युञ्ज्यात् युञ्ज्यात् उप उपसर्गपूर्वक विष् धातु लेबन्तपदम्
उपविश्य उपविश्य प्रसङ्गे भवति यद् जानाति तद्वदतु
उपविश्य आसने उपविश्य सिटिङ्ग् इन् उपविश्य विष् धातु
उप उपसर्ग उप उपसर्गपूर्वक विष् धातुतः ल्यप् योजनेन उपविश्य खलु आसने विभक्तिः का
आसने सप्तमी विभक्ति एकवचनं
प्रथमान्तं किम्
आसनम्
उत्तमम् उत्तमम् आस् धातुतः ल्युट् प्रत्ययस्य योजनेन आसनम् आसने उपविश्य इति लिखितम् युञ्ज्यात् युञ्ज्यात् इत्यत्र युजिर् इति धातुः अस्ति तत्र धातुः अपि रमेश् महोदय भवान् यद् जानाति तद्वदतु युञ्ज्यात् प्रसङ्गे
युञ्ज्यात् इति युजिर् युजिर् इति धातुः अस्ति चेत् तस्य लोपः भवति वार्तिकेन इरत्तश्च वा
कुर्यात् कुर्यात् इव अत्र युञ्ज्यात् इति लिखितमस्ति लकारः कः
विधिलिङ्ग्लकारः अस्ति
उत्तमं कुर्यात् रुदादिगणीय धातु उत्तमं वदतु
रुदादिगणीय जास्ति अस्ति विधिलिङ्ग् यासुट् इति प्रत्ययः भवति तत् तत्पश्चात् किं भवति इति न जानामि तत् या इति एव अवशिष्यते यासुट् तस्य यासुट् परस्मैपदेषु परन्तु तत्र नकारः रुदादिगणे यत् विकर्णप्रत्ययः अस्ति तत्र णम् इति विकर्णप्रत्ययः अस्ति नकार एव तिष्ठति यु योगः युन् युन युणज् इति रूपं भवति यदि नुमागमः भवति युणज् इति रूपं भवति युणज् तत्र नकारस्य अकारः नकारस्य अकारः अश्नल्लोपः अश्नल्लोपः अश्येनल्लोपः किमपि
स्नशोरल्लोपः
स्नशोरल्लोपः
स्नशोरल्लोपः स्नशोरल्लोपः इति कथनेन अल्लोपः
अल्लोपः भवति श्न इति तद् शित्न अस्ति श्नम् अस्ति अस्ति तत् शित्न अस्ति किमर्थं
चिन्ता मास्तु महोदय रूपसिद्धेः प्रसङ्गे रुधादिगणीयधातूनां प्रसङ्गे बहु किमपि चिन्तनम् अस्ति यथा महोदयेन उक्तमस्ति धातुः तु रुधादिगणीयधातुः धातुः इरित् धातुः अतः युजिर् इति कथनेन योगे इत्यस्मिन् अर्थे अयं धातुः अस्ति इरहित् संज्ञावाच्य इति वार्तिकेन इर् इत्यस्य इति संज्ञा भूत्वा युज् लौकिकधातोः रूपं सिद्ध्यति धातुः तु उभयपदी अत्र तु परस्मैपदीरूपं दत्तमस्ति विधिलिङ्ग्लकाररूपं प्रथमपुरुष एकवचनरूपं दत्तमस्ति कुर्यात् पठेत् एवमेव अत्र युञ्ज्यात् इति रूपम् अस्ति किन्तु रुधादिगणीयधातूनां प्रसङ्गे रुदादिभ्यः श्नम् इति सूत्रेण श्नम् इति विकरणप्रत्ययः अस्ति श्नम् विकरणप्रत्ययस्य मित्वात् नुमागमः तत्र भवति श्नम् इतोपि वैशिष्ट्यं किं रुधादिगणीयधातूनां प्रसङ्गे साधारणतया अन्येषु गणेषु गणविकरणप्रत्ययः सार्वधातुकप्रक्रियायाम् अन्येषु गणेषु
अङ्गस्यान्ते भवति
वदतु वदतु
मित् अस्ति चेत् स्वरः भवति चकारः वर्णः अस्ति चेत् परः यु स्वरः अस्ति चेत् नकारः यु अनन्तरं भवति इञ्च भवति
उत्तमम् इत्युक्ते तत्र रुधादिगणीयधातुः अतः रुधादिभ्यः श्नम् सूत्रेण श्नम् गणविकरणप्रत्ययः आयाति किन्तु श्नम् गणविकरणप्रत्ययस्य वैशिष्ट्यम् अस्ति सः गणविकरणप्रत्ययः धातोः अनन्तरं न आयाति अत्र धातोः मध्ये एव आगत्य उपविशति इति विषयः श्नम् इति इत्यत्र मकारः इति संज्ञकः इत्युक्ते श्नम् विकरणप्रत्ययः मित् प्रत्ययः मित्वात् मिदचोन्त्यात् परः इति सूत्रेण परिभाषासूत्रेण मिदचोन्त्यात् परः इति परिभाषासूत्रेण अन्तिमाचुवर्णस्य अनन्तरम् आयाति इत्युक्ते युज् इत्यत्र उकारोत्तरवर्ति तत्र नकारः आगतः युनज् इति अङ्गं भवति अपि च श्नशोरलोपः इति कार्यमपि भवति अल्लोपः भवति अन्ततो गत्वा इतोपि अन्यानि कार्याणि सन्ति युञ्ज्यात् इति तु विधिलिङ्गकाररूपमस्ति कुर्यात् इव इति विषयः अत्र इतोपि अन्तिमं वाक्यम् अन्तिमं नास्ति द्वादशं वाक्यमस्ति सूर्यकुमारी भगिनी भवती पठतु अग्रिमं वाक्यम्
भूतग्रामः सा एवायम् एवायम् भूत्वा भूत्वा प्रलीयते भूतग्रामः सः एवायम् भूत्वा भूत्वा प्रलीयते
अत्र भूतग्रामः इति समस्तपदं तत्र विग्रहवाक्यं किमस्ति
ग्रामः
इति पुंलिङ्गपदमेव षष्टि तत्पुरुषसमासः तत्पुरुषसमासः अस्ति इत्युक्ते भूतानां ग्रामः इति षष्टि तत्पुरुषसमासः अस्ति अत्र तत्पुरुषसमासः अस्ति इत्यतः परशब्दस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः सूत्रेण उत्तरपदस्य लिङ्गमेव समस्तपदस्य लिङ्गं भवति अतः भूतग्रामः इति अपि समस्तपदमपि पुंलिङ्गपदमेव षष्टितत्पुरुषसमासः अस्ति भूतसमुदायः इति अर्थः अस्ति ग्रामः इत्यस्य अर्थः कः इति अहं दृष्टवती बहुजनवसतिः इति तस्य अर्थः ग्रामः इति अपि पुंलिङ्गपदमेव स एव अयम् इति लिखितम् अस्ति तत्र किमस्ति एवायं वदतु एवायम् अत्र वर्षा भगिनी भवती वदतु एवायं तत्र सन्धिकार्यं किम्
अत्र एव
एवायम्
इति सवर्णदीर्घसन्धिः अस्ति
एव योगः अयम् इति सवर्णदीर्घसन्धिकार्यमस्ति स एवायम् इत्यत्रापि सन्धिकार्यमस्ति स योगः एव इत्यत्रापि सन्धिकार्यमस्ति तत्र किमस्ति उत्तमम् उत्तमं तत्र चिन्तनं किमस्ति सूर्यकुमारी भगिनी वदतु
पञ्चमवर्तसूत्रमस्ति अतः परः
तत्र पञ्चमं भाटसूत्रं नास्ति नास्ति तत्र विशिष्टचिन्तनम् अस्ति सः एषः द्वयोः प्रसङ्गे वदतु
सः एषः स्वरात् अन्य स्वरः अस्ति चेत् लोपः भवति
इत्युक्ते तत्र किं वक्तव्यम् एषः सः द्वयोः प्रसङ्गे एतत् एतस्मिन् पदद्वये तत्र वैशिष्ट्यमस्ति. विसर्गसन्धेः कार्यमेव भवति अत्रापि. विसर्गसन्धेः प्रसङ्गे वयं पठितवन्तः अत्र विसर्गलोपः भवति एतयोः प्रसङ्गे. तत्र अनयोः प्रसङ्गे अतिपरे उत्वं भवति चतुर्थभाट्टसूत्रेण. अतिपरे उत्वं भवति, किन्तु अन्यत्र सर्वत्र विसर्गलोपः भवति. केवलम् अतिपरे उत्वं भवति. अत्वर्णः परः अस्ति चेत्, स्वरवर्णः अत्वर्णः अकारः परः अस्ति चेत् उत्वं भवति. पश्चात् ओकारः गुणकार्यमपि भवति, किन्तु अन्यत्र सर्वत्र विसर्गलोपः एव भवति. अत्र विसर्गलोपं कृत्वा लिखितमस्ति. सः एव, स एव इति लिखितमस्ति. अत्र विकल्पेन अन्यद् रूपमपि अस्ति वा? अत्र लोपः शाकल्यस्य कार्यं भवति वा? भो भगो अघो अपूर्वस्य योषि अपि च लोपः शाकल्यस्य, अनयोः प्रसङ्गः अस्ति वा? द्वयोः सूत्राभ्यां विकल्पेन अन्यद् रूपं सम्भवति वा? अत्र अत्र
लोपशाकल्यस्य फलं भवति.
अत्र एष इच्छति, स इच्छति इत्यादिषु तत्र यकारसहितं रूपम् आयाति. तादृशं कार्यम् अत्रापि भवति वा? एष इच्छति, स इच्छति इत्यत्र यकारसहितं रूपं, विकल्पेन अन्यद् रूपमपि सम्भवति तत्र. तादृशं चिन्तनम् अत्रापि भवति वा इति चिन्तनीयम्. अस्तु, अग्रे सरेम. भूत्वा इति कीदृशं पदं वदतु सूर्यकुमारी भगिनी.
त्वान्तरूपं भू धातुतः त्वा प्रत्यय उपयुज्य भूत्वा भवति.
किमर्थं द्विवारं लिखितमस्ति?
भूत्वा भूत्वा पुनः पुनः
पुनः पुनः एव उत्तमम् इत्युक्ते तदेव. अत्र पौनःपुन्यार्थे पौनःपुण्यम् इत्युक्ते पुनः पुनः इति अर्थः अस्ति. पौनःपुन्यार्थे नमुल् इति एकः प्रत्ययः अस्ति, नमुल् प्रत्ययान्तरूपं. तत्र भूधातोः नमुल्लन्तं रूपं भावं भावम् इति भवति. नमुल्लन्तं रूपं पठ् धातुतः नमुल्लन्तं रूपं पाठं पाठं, श्लोकं पाठं पाठं स्मरामि इति वक्तुं शक्यते. स्मृधातोः नमुल्लन्तं रूपं स्मारं स्मारं, स्मारं स्मारम् इति कथनेन स्मृत्वा स्मृत्वा इति अर्थः अस्ति. किन्तु अत्र भूत्वा भूत्वा पुनः पुनः उत्पद्य इति अर्थः अस्ति. अन्तिमं पदमस्ति वदतु.
सा उपसर्गः ली धातुतः. अहं चिन्तयामि द्विवादिगणा
लीयते. पश्यतु लीयते धातुः ली अस्ति, लीयते या इति कस्मिन् गणे श्रूयते?
द्विवादिगणे.
उत्तमम्.
आत्मनेपदे धातुः अस्ति.
उत्तमं. जायते इव अत्र लीयते इति रूपम् अस्ति. तत्र प्रावुपसर्गपूर्वक ली धातुतः शन् विकरणप्रत्ययः अस्ति. दिवादिभ्यः शन् सूत्रेण शन् विकरणप्रत्ययः आयाति. प्रलीयते. वि उपसर्गः अस्ति चेत् विलीयते खलु. नि अस्ति चेत् निलीयते. विलीयते वि उपसर्गपूर्वकरूपम् अस्ति, किन्तु ली धातोः क्तान्तरूपं, ली धातोः क्तान्तरूपं लीन लीनं विलीनम् इति पदं वयं जानीमः. विलीनम् अस्ति, विलीनम् इति पदं कथाप्रत्ययान्तरूपं ली धातुतः कथाप्रत्ययः अस्ति. अत्र भूतग्रामः सयेवायं भूत्वा भूत्वा प्रलीयते इति वाक्यमस्ति. अत्र प्रलीयते इत्यस्य अर्थः तु परिश् आर् डिसपियर् इति अर्थः अस्ति. पेरिश् अथवा डिसपियर् इति अर्थः. अपि च दिवादिगणीयधातूनां प्रसङ्गे कर्तरि लट् रूपं कर्मणि लट् रूपं समानम् प्रलीयते इति रूपं कर्तरि लट् कर्मणि लट् तदेव, तत्र भेदः नास्ति. रूपं
समानं चेत् या अवशिष्यते.
उत्तमम्. अनुबन्धलोपे सति या अवशिष्यते, न तु यकारः. यकारः नास्ति तत्र, यकारोत्तरवर्ति अकारः अपि तत्र शिष्यते अनुबन्धलोपे सति. इत्युक्ते व्याकरणप्रत्ययस्य अवशिष्टभागः या अस्ति. या भिन्नः, यकारः भिन्नः, खलु?
गुणसन्धिविषये यकारः अस्ति.
हा उत्तमम्. इत्युक्ते यका ह्यन् प्रसङ्गे यकारोत्तरवर्ति अकारः अपि तत्र अस्ति. हा उत्तमम्. अन्तिमं वाक्यं करोतु.
सगद्गतं भीतभीतः प्रणम्य भगिनि
सगद्गदं
सगद्गदम्
अत्र स पृथक् करोतु, गद्गदम् इति भवति. सगद्गदं
सगद्गदम् ओके.
तत्र रमेश महोदय भवान् वदतु, सगद्गदं तत्र किमस्ति चिन्तनम्?
भीतः प्रणम्य सगद्गदं भीति भीतः प्रणम्य
सगद्गदम्
तत्र अव्ययी भावः बहुव्रीहि समासः इति दृश्यते. गद्गदं गद्गदेन सह पुत्रेण सह
इत्युक्ते सह सहपूर्वपद बहुव्रीहि समासः वा?
सहपूर्वपद बहुव्रीहि
यथा सपुत्रः
सपुत्रः एव वा अव्ययं वा इति गद्गदं. परन्तु यदि बहुव्रीहिः भवेत् तर्हि अर्जुनः एव भवेत् तर्हि
अत्र वदतु
अव्ययी भावः अस्ति इति चिन्तयामः. प्रायः बहुव्रीहिः नास्ति तत्र, अव्ययी भावः एव.
गद्गदेन सह इति वदामः चेत् गद्गदेन सह वर्तते तत्र सेट् सेट् इति पदं वदामश्चेदपि तत्रापि सः पूर्वपद बहुव्रीहिसमासः अस्ति. इटा सह वर्तते इति विग्रहवाक्यं भवति सेट् इत्यत्र. एवमेव सपुत्रः इत्यत्र पुत्रेण सह वर्तते. सकर्मकः इत्यत्र कर्मणा सह वर्तते इति भवति. किन्तु अत्र किमस्ति, अत्र सः पूर्वपद बहुव्रीहिः अस्ति वा, गद्गदेन सहितः इति भवति वा? अर्जुनः भीतभीतः जातः, कृष्णं प्रणम्य सगद्गदं वदति इति वदामश्चेत् सगद्गदं वदति इत्युक्ते तत्र
क्रियाविशेषणमस्ति वा?
कण्ठः सगद्गदः, सगद्गदं कण्ठम् इति भवति वा इति चिन्तनीयम्. क्रियाविशेषणं भवितुं शक्नोति. सगद्गदं वदति कः? अर्जुनः. अर्जुनः भीतभीतः कृष्णं प्रणम्य सगद्गदं वदति इति विषयः. प्रणम्य प्रसङ्गे सूर्यकुमारी भगिनी वदतु.
सा योगः नम् धातुतः लप्पन्तम् लप् प्रा अस्ति चेत् नत्वं भवति. नम् धातु प्रणम्य
अत्र पश्यतु प्रणम्य इत्यत्र अत्र प्रा इति उपसर्गः अस्ति, उपसर्गः अपि पदमेव इत्युक्ते पूर्वपदे निमित्तम् अस्ति उत्तरपदे दन्तिनकारः अस्ति किमर्थं तत्र णत्वं भवति केन सूत्रेण भवति
उपदेशे नोपदेशस्य
उपसर्गात् असमासे णोपदेशस्य
आमां
वदतु
उपसर्गात् उपसर्गात् असमासेपि नोपदेशस्य नः नः भवति
उत्तमम् इत्युक्ते उपसर्गे निमित्तम् अस्ति अत्र प्रायित् उपसर्गे निमित्तम् अस्ति
असमासेपि
असमासेपि णोपदेशस्य इत्युक्ते अयं धातुः उपदेशावस्थायां णकारादिधातुः णोपदेशधातुः णम इति रूपम् अस्ति उपदेशावस्थायाम् अस्य धातोः रूपं णम अस्ति णोपदेशधातुः णोपदेशधातूनां प्रसङ्गे इदं सूत्रं कार्यं करोति असमासे अपि इति लिखितम् अपि प्रणयनम् इत्यादिषु अपि अनेन सूत्रेण एव कार्यं भवति वदतु
असमासेपि तदर्थं क्रियापदमपि भवति खलु
उत्तमम् तत्र क्रियापदं भवति इत्युक्ते प्रणमति प्रणमति इति तिङन्तपदं खलु
आम् आम्
तिङन्तपदेषु अपि अनेन सूत्रेण एव णत्वं भवति इत्युक्ते समस्तपदेषु णत्वं भवितुं भिन्नसूत्राणि सन्ति तत्र रषाभ्यां नोणः सूत्रेण न भवति किन्तु तदर्थं विशिष्टानि सूत्राणि सन्ति समस्तपदानां प्रसङ्गे किमर्थं तथा इत्युक्ते निमित्तं पूर्वपदे अस्ति उत्तरपदे दन्तिनकारः अस्ति तत्र णत्वं भवितुं विशिष्टसूत्रम् आवश्यकमस्ति उपसर्गात् असमासेपि णोपदेशस्य इति सूत्रेण णत्वं भवति प्रणम्य इत्यत्र प्रणम्य इति कथनेन नमस्कृत्य इति भवति तत्र नमः इति उपसर्गः नास्ति नास्ति चेदपि उपसर्गः इव कार्यं करोति अत्र इतोपि चिन्तनम् अस्ति वा रमेश महोदय वदतु नमस्कृत्य इत्यत्र
नमस्कृत्य इति अत्र कृत्य इति पदस्य वा नमः नमस्कृत्य नमः नमस्कृत्य तत्र समस्तपदमस्ति नमः कृत्वा इति ल्यप् अन्ते नमस्कृत्य इति भवति कृ इति ह्रस्वः अस्ति तर्हि क्रूयोगः ल्यप् कृत्य इति भवति ह्रस्वस्य प्रीति कृति तुक् इति सूत्रेण नमः नमः इति नमस्वस्ति नमः इति अव्ययमस्ति तेन
यद्यपि उपसर्गेषु अन्यतमः नास्ति तथापि उपसर्गः इव कार्यं करोति अतः यबन्तरूपं सिद्ध्यति नमस्कृत्य खलु
सर्वे समासे अपि तदेव भवति खलु यत्र समासं कृत्वा यत्र भवति गतिसमासे तत्रापि ल्यबन्तम् एव भवति
गतिसमासप्रसङ्गे आम् उत्तमम् अग्रे भीत सूर्यकुमारी भगिनी वदतु भीत इति कीदृशं पदम् उत्तमं भी धातुतः क्ता प्रत्ययस्य योजनेन भीत भी धातोः लटीरूपं किमस्ति
लटीरूपं
बिभेति बिभेति इति कथनेन कस्मिन् गणे
तृतीयगणे अस्ति
जुहोत्यादिगणीयलक्षणं किम्
द्वित्वं भवति
उत्तमं भीधातुतः बिभेति इति रूपं सिद्ध्यति तत्र भीतभीतः इति इत्युक्ते भयसहितः इति वक्तुं शक्यते भी धातोः नमल् प्रत्ययान्तरूपं भायं भायम् इति भवति. भीत इति क्तान्तरूपमेव. अत्र इतोपि किमस्ति? भीतभीतः इत्युक्ते भयसहितः. अस्तु, समापितं. सम्यक्, अस्तु,
धन्यवादः भगिनि.
अस्मिन् प्रसङ्गे वर्षा भगिनी भवती वदतु, अन्तिमं वाक्यं दृष्ट्वा भवती यद् वक्तुमिच्छति तद्वदतु. सगद्गदं भीतभीतः प्रणम्य.
आं महोदय, अत्र विश्वरूपदर्शनं दृष्ट्वा तदनन्तरं भगवान् कृष्णः उक्तः, निमित्तमात्रं भव सवे साचिन् सर्वे मया पूर्वमेव मया हननं कृतम् आसीत् इति कृत्वा त्वं केवलं निमित्तं भव इति यदा भवता भगवता उक्तं, तत् श्रुत्वा अर्जुनः भीतः अभवत्. तदपि अपि च विश्वरूपदर्शनेनैव सः भयम् अनुभूतवान् इति कृत्वा सः अत्र वेपमानः अर्जुनः नमस्कृत्य भगवन्तं प्रति सः प्रणम्य स्थाने ऋषिकेश इति श्लोकम् उक्तवान्.
उत्तमं, तदेव. साधु भगिनि, धन्यवादाः. अत्र अनेन अभ्यासेन विषयः तु समाप्तः. अग्रिमे वर्गे नूतनविषयं प्रति गमिष्यामः, अथवा नूतनविषयः आरप्स्यते. नूतनविषयं प्रति गमिष्यामः. अधुना अत्र विरमाम. सर्वेषां धन्यवादाः.
धन्यवादः.
धन्यवादः भगिनि.
धन्यवादः भगिनि.
धन्यवादः.